एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदैः पारस्परिक सद्भावम् सामाजिकैकताम् धार्मिक सहिष्णुताम् च स्थापयितुम् बलम् दत्तमस्ति ह्यस्तनोपवेशे सांसदैः सुशासनस्य जनजीविकायाः कृषकाणाम् समस्यानाम् समाधानस्य यूनाम् वृत्त्युपार्जनस्य पारस्परिक सद्भावस्य मानवानाम् क्रय विक्रय नियन्त्रणस्य च कृते प्रभावपूर्णम् प्रयत्नम् विधातुम् सर्वकारस्य ध्यानाकर्षणम् विहितम् उपवेशे सांसदः कोशी मदेश प्रदेशयो सम्भूताम् घटनाम् प्रति समये एव सचेतस्कतया सुरक्षा संवेदनशीलताम् स्थापयितुम् सर्वकारम् अनुरुध्य राष्ट्रिय एकतायाः सामाजिक सद्भावस्य विश्वासस्य शान्ति स्थापनायाश्च कृते ध्यानम् प्रदातुम् बलम् दत्तवन्तः तत्पूर्वम् उपवेशे शून्य समये सांसदः दैनिकोपभोग्य वस्तूनाम् मूल्यस्य वर्धनात् उपभोक्तारः संकटे वर्तन्ते इत्युक्त्वा मूल्यवृद्धेः नियन्त्रणाय सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः राष्ट्रियसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः बालेन्द्र सहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया मदेशायोगस्य गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतम् आसीत् एवमेव ह्यस्तनोपवेशे विकासार्थिक विषय सुशासन समितेः सभापति कृष्ण प्रसाद पौडेलः मधेश प्रदेशे पेयजल स्वच्छता जलस्रोत व्यवस्थापन सम्बद्धम् एतद् विक्रमवर्षीयम् वार्षिकम् प्रतिवेदनम् प्रास्तौत् राष्ट्रसभायाः अपरोपवेशः श्रावण मासस्य एकविंशे दिवसे बृहस्पतिवासरे दिवासपादैकवादने वस्ता नेपाली कांग्रेस दलेन सम्प्रत्येव मधेश प्रदेशस्य विभिन्नेषु जनपदेष् घटितायाः घटनायाः विषये सर्वकारेण निर्मिता अनुसन्धान समितिः औपचारिकता मात्रमस्तीति उक्त्वा अस्वीकर्तुम् निर्णीतमस्ति नेपाली कांग्रेस दलस्य संसदीय दलस्य उपवेशेन सम्प्रत्येव मधेश प्रदेशस्य विभिन्नेष् जनपदेष् घटितानाम् घटनानाम् विषये स्वतन्त्रतया निष्पक्षतया च अनुसन्धानम् विधेयमिति उक्त्वा न्यायिक समितेः संघटनस्य विषयम् दृढतया संसदि प्रस्तोतुम् निर्णीतमस्तीति दलस्य महामन्त्री प्रदीप पौडेलः असूचयत् महामन्त्री पौडेलः घटनाम् स्वतन्त्ररूपेण निष्पक्षरूपेण च अनुसन्धातुम् समितेः संघटनाय अन्यैः विपक्षि दलैस्सहापि निस्सहकार्याय निर्णीतमस्तीति असूचयत् मध्य पर्वतीय राजमार्गस्य सिन्धुली जनपदस्य फिक्कल स्थाने सुनकोशी नद्याम् निमग्नस्य जीपयानस्य यात्रिणाम् परिचयः प्राप्तोऽस्ति सुनकोशी नद्याम् जीपयानस्य पतनेन चत्वारो जनाः विलुप्ताः सन्तीति उक्तम् सदपि प्रहरिणा त्रयो जनाः एव वर्तन्ते इति ज्ञापितमस्ति विलुप्तेषु जनेषु सिन्धुपाल्चोक जनपदस्य जुगल ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य निर्माण व्यवसायी यान चालकस्य एकोनचत्वारिंशत् वर्षीय दिलकुमार लामा स्कावेटर यान चालकः सिन्धुली जनपदस्य गोलन्जोर ग्रामपालिकायाः अष्टाविंशति वर्षीय गणेश थापा सिन्धुली जनपदस्य तीनपाटन ग्रामपालिकायाः सूरज मगर च वर्तन्ते इति प्रहरिणा ज्ञापितमस्ति ह्य दिवा काष्ठमण्डपात् ओखलडुंगा जनपदम् प्रति प्रस्थीयमानेन बसयानेन मार्गे स्थितम् कारयानम् प्रेरितम् सत् कारयानम् मार्गात् अधः सुनकोशी नद्याम् पतितम् आसीत् विलुप्तानाम् जना नाम अन्वेषण कार्यम् जायमानमस्तीति प्रहरिणा ज्ञापितम् वर्तते नेपाल प्रहरिणः केन्द्रीयानुसन्धान निकायेन पारपत्राधिनियमेन सह सम्बद्धे अपराधे परराष्ट्र मन्त्रालयस्य सहसचिवः पुष्पराज भट्टराई निगृहीतो वर्तते निकायस्य प्रवक्तुः अनुप शमशेर जबरा इत्यस्य अनुसारेण तिब्बत क्षेत्रीय शरणार्थिनाम् नाम्नि अवैधानिक यात्रा अनुमति पत्रम् प्रदत्तमिति आरोपी सहसचिवः भट्टराई प्रहरिणा निगृहीतो वर्तते काष्ठमण्डप जनपद सर्वकारीय अधिवक्तृ कार्यालये पारपत्र सम्बद्धापराधे न्यायिक निवेदनस्य पञ्जीकरणेन सहैव निकायेन भट्टराई ह्य सोमवासरे त्रिपुरेश्वर स्थानात् निगृहीतो वर्तते भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन आयव्ययकस्य क्रियान्वयने वित्तीयानुशासनम् स्थापयितुम् सर्वे स्थानीय सर्वकाराः अनुरुद्धा वर्तन्ते चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य स्थानीय सर्वकार संचालनाधिनियमस्य अनुसारेण ग्रामपालिकाभि नगरपालिकाभिश्च योजनानाम् निर्माणस्य क्रमे आर्थिक विकासाय विपन्नतायाः निवारणाय च प्रत्यक्षम् योगदानस्य प्रापिकः उत्पादनमूलिकः शीघ्रम् प्रतिफल बलस्य प्रदायिकाश्च दशयोजनाः प्राथमिकतापूर्वकं निर्धारिताः वर्तन्ते। अस्याः एव प्राथमिकतायाः आधारेण वित्तीयविनियोजनस्य क्रियान्वयने अनुशासनं स्थापयितुं मन्त्रालयेन सर्वे स्थानीय सर्वकाराः अनुरुद्धाः सन्ति। सांस्कृतिक राष्ट्रिय महत्वस्य विषयवस्तुषु आधृतानां चलचित्राणां निर्माण कार्याय प्रोत्साहन प्रदानस्य उद्देश्येन सर्वकारेण निर्मास्यमानस्य सांस्कृतिक राष्ट्रिय महत्वस्य क्षेत्रे चलचित्र निर्माणाय प्रोत्साहनानुदान कार्यक्रम सम्बद्धस्य एतद् विक्रमवर्षीयस्य कार्यविधेः प्रस्तावमाधृत्य सम्बद्ध पक्षैस्सह सर्वकारेण विमर्शनं विहितं वर्तते। चलचित्रक्षेत्राय प्रोत्साहन प्रदानाय वर्तमानार्थिक वर्षे विनियुक्तानां कोटित्रयस्य पञ्चाशतोलक्षाणां च रूप्यकाणाम् अनुदान सहयोगस्य पारदर्शी रूपेण प्रभावकारितया उपलब्धि मूलक रूपेण च परिचालनं कर्तुं कार्यविधेः निर्माणस्य उद्देश्येन सूचना संचार मन्त्रालयेन सम्बद्ध पक्षेभ्य परामर्शनं गृहीतं वर्तते। महिला बाल बालिका लैंगिक यौनिकाल्प संख्यक सामाजिक सुरक्षा मन्त्री सीतावादी अनलाइन प्रविधेः उपयोगस्य प्रवृत्तेः वर्धनस्य क्रमे साञ्जालिकापराधानां नियन्त्रणाय विधिगतं संस्थागतं च सुदृढं नियन्त्रणं संयन्त्रं निर्मातुं बलं ददाति। महिला सामाजिक विषय समितेः ह्यसिम प्रासादे उपविष्टे उपवेशे मन्त्रीवादी साञ्जालिकापराधात् रक्षणस्य नाम्नि महिला बाल बालिकानां सामाजिक सञ्जालस्य प्रयोगात् पृथक् स्थापनस्य अपेक्षयापि अनुसन्धानस्य सामर्थ्यस्य अभिवृद्धि सुरक्षितस्य अनलाइन प्रविधेः वातावरणस्य निर्माणं कृत्वा अग्रे वर्धनीयम् इत्यत्र बलं दत्तवती। प्रतिनिधिसभायाः उपवेशः अद्य दिवा एकवादनाय आहूतोऽस्ति। उपवेशे प्रधानमन्त्रिणः पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया आदिवासी जनजाति आयोगस्य षष्ठं वार्षिकं प्रतिवेदनं प्रस्तुतेः सम्भाविता कार्यसूची वर्तते इति संघीय संसद सचिवालयेन ज्ञापितमस्ति। उपवेशे नेपाली कांग्रेस दलस्य संसदीय दलस्य नेत्रा भीष्मराज आङदेम्बे इत्यनेन प्रस्तुतं अत्यावश्यक महत्वस्य प्रस्तावम् आधृत्य विमृक्ष्यते। अद्यैव विभिन्नानां पञ्चानां संसदीय समितीनाम् उपवेशाश्च उपविश्यमानाः सन्ति इति ज्ञापितं वर्तते। आगामिषु त्रिषु दिनेषु देशस्य विभिन्नेषु भागेषु सामान्य वृष्टेः अत्यधिक वृष्टेश्च सम्भावना अस्तीत्यतः सावधानताम् अवलम्बितुं जलवायु वातावरण विज्ञान विभागेन सर्वे अनुरुद्धा वर्तन्ते। विभागस्य प्रवक्तुः विभूति पोखरेलस्य अनुसारेण चतुर्विंशतेः घण्टानाम् अभ्यन्तरे देशस्य कतिपयेषु स्थानेषु मध्यम वृष्टेः कतिपयेषु स्थानेषु अत्यधिक वृष्टेश्च सम्भावना वर्तते।